विश्वादीनां शतार्थ प्रवचन चतुरो दान सूक्तार्थवादी दिव्य ज्ञान प्रकाशी सकलदिदखिल ज्ञाभिधः प्राप्त रूप्यः भीमो वा भीमसन्धः खलकुलदमने गीतिका भाष्यकारी गुर्वर्चीयानुदीची मम मनसि लसेत् तीर्थशुतारी सुकर्मोपगतबदरिकान्तोऽत्र नारायणयो न त्वैकान्ते समुद्यत्प्रवचनकृदथो सत्तपाः कृष्णनुन्नः आप्तेभ्यः कार्यलेखी स्वमनुगतनिजप्रेरकः पाणिमात्रात् मारुत्याभ्यः प्रपश्यन् हरिमपि गिरिणा सार्धमृद्धि स्वाश्रमाग्र्यं मुनिमहितगुणो दिव्यसालं च चित्रम् तत्र ऋषीणां समाजे हरिमपि मुनितः सत्यवत्यां प्रदातम् कर्तारं भारतादेर्भरतवरगुरुं ब्रह्मसूत्रस्य चाहु निर्दोषं नित्यपूर्णा गणितगुणमसौ प्रियतां मे सचेष्टैः सर्ववन्द्यैर्विमलकुवलयश्यामलैः शोभमानम् सज्ञानानन्दतेजः प्रवरगुणमयैः पूर्णलावण्यरूपैः बिम्बोष्ठं पद्मपादं शुभकपिशजटं शैनचर्माणमीशं दृष्ट्वा नत्वोपगूढः स गुरुरवतु नः सूपविष्टो मुनिव्यासस्य नारायणमथ च गतं सर्वहेतुं समात्स्यम् साश्वास्यं कूर्मकोलौ नृहरिमथमनं वामनं बुद्धरामो व्यासं काकुत्स्थकृष्णावतिचिरमितरानन्दनं कल्कियज्ञौ सिद्धेशं नौमि धन्वन्तरिवरवनिताख्यन्तमेनं स्मरन्तम्।